इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी इस्राएल प्रधानमन्त्रिणा बेंजामिन नेतन्याहू इत्यनेन सह तेल अवीव इत्यत्र द्विपक्षीय वार्तालापं कृतवान्। जलप्रबन्धनं कृषि प्रौद्योगिकी च इत्यादिषु अनेक क्षेत्रेषु सहकार्यं वर्धयितुम् उभौ नेतारौ चर्चां कृतवन्तौ। जेरुसलेम नगरे प्रधानमन्त्रिणा श्रीमोदिना इस्राएलस्य नेसेट इति संसत् सम्बोधनं कृत्वा प्रोक्तं यत् अस्य प्रतिष्ठित सदनस्य समक्षं स्वस्य उपस्थितिः सौभाग्यमयी गौरवप्रदा च वर्तते। प्रधानमन्त्री मोदी हमास इत्यनेन कृतस्य आतंकवादी आक्रमणस्य घोरनिन्दां कृत्वा निर्दोष नागरिकाणां वधः केनापि कारणेन न्यायं न भवितुम् अर्हति इत्युक्तवान्।
India stands with Israel firmly, with full conviction in this moment and beyond. No cause can justify the murder of civilians. Nothing can justify terrorism. India has also endured the pain of terrorism for a long time. We have consistent and uncompromising policy of zero tolerance for terrorism with no double standards.
इस्राएलस्य प्रधानमन्त्री नेतन्याहू प्रोक्तवान् यत् प्रधानमन्त्री मोदी न केवलं मित्रम् अपि तु भ्रातापि वर्तते। भारत इस्राएल देशयोः रणनीतिक सहयोगस्य सुदृढीकरणाय इस्राएलस्य संसदा प्रधानमन्त्रिणे श्रीनरेन्द्रमोदिने स्पीकर ऑफ द नेसेट मेडल इति पदक पुरस्कारेण सम्मानितम्। प्रधानमन्त्री मोदी प्रथमः विश्वनेता अस्ति यः एतत् सम्मानं प्राप्तवान्। अन्तर्जालीय सन्देशे प्रधानमन्त्रिणा उक्तं यत् सः नेसेट पदकम् अत्यन्त विनयपूर्वकं कृतज्ञतया च स्वीकुर्वति। गृहमन्त्री अमितशाहः इस्राएल देशेन स्पीकर ऑफ द नेसेट मेडल इति सम्मानप्राप्ते प्रधानमन्त्रिणे नरेन्द्रमोदिने अभिनन्दनं कृत्वा उक्तवान् यत् प्रत्येकस्य भारतीयस्य कृते एषः अपार गौरवस्य क्षणः वर्तते। राष्ट्रिय खाद्य प्रौद्योगिकी उद्यम प्रबन्धन संस्थानम् अद्य आरभ्य त्रिदिवसीयम् अन्ताराष्ट्रिय सम्मेलनस्य आयोजनं करिष्यति। सम्मेलने सहस्राधिका प्रतिनिधय आगमिष्यन्ति इति अपेक्षा अस्ति। अस्य उद्देश्यं भविष्यस्य दृष्ट्या स्वास्थ्यवर्धक खाद्यपदार्थानां विमर्शः वर्तते। नागालैण्डस्य दीमापुरे त्रिदिवसीय पूर्वोत्तर वसन्तोत्सवः अद्यारभ्य आरभ्यते। अस्य आयोजनस्य उद्देश्यं पूर्वोत्तर भारतस्य समृद्धस्य लोक जनजातीय सांस्कृतिक परम्परायाः प्रचारः संरक्षणं च वर्तते। अनेन सह अयम् उत्सवः पारम्परिक कलाकारेभ्यः राष्ट्रिय मञ्चमपि प्रदास्यति। आगामी होली महोत्सवे यात्रिकाणां कृते सुचारु सुरक्षित आरामदायक यात्रां सुनिश्चेतुं भारतीय रेलवे प्राधिकरणेन विशेष रेल व्यवस्था कृता वर्तते। 18 मार्च पर्यन्तं यात्रिकाणां संख्यायाम् अपेक्षित वृद्धिं दृष्ट्वा रेलवे विभिन्न रेल क्षेत्रेषु 12 शताधिक विशेष रेल यानानां संचालनं करिष्यति। सीबीआई इति केन्द्रीय अन्वेषण विभागेन 6 राज्येषु अन्वेषणाभियानं कृत्वा प्रमुखे डिजिटल वञ्चन प्रकरणे 3 आरोपिणः निगडिताः। विभागेन दिल्ली, कर्नाटकस्य बेंगलुरु, केरलस्य पलक्काडु, महाराष्ट्रस्य नागपुर, तेलंगाना राज्यस्य हैदराबाद, गोवा इत्यत्र अनेक स्थानेषु अन्वेषणं कृतम्। ऐषमः अन्ताराष्ट्रिय 20-प्रतिविंशतिः क्रिकेट विश्व चषक क्रीडायां गतरात्रौ कोलंबो नगरस्य आर प्रेमदास क्रीडांगणे द्वितीय समूह सुपर 8 क्रीडायां न्यूजीलैंड देशः श्रीलंका देशं 61 धावनांकैः पराजितवान्। अद्य अपराह्णे अहमदाबाद नगरस्य नरेन्द्र मोदी क्रीडांगणे वेस्टइंडीज दलं दक्षिणाफ्रीका दलं सम्मुखीकरिष्यति। मध्याह्ने 3 वादने क्रीडा आरभ्यते। सायंकाले चेन्नई नगरस्य एमए चिदंबरम क्रीडांगणे भारतेन जिम्बाब्वे दलं विरुद्ध क्रीडिष्यते। सायं 7 वादने अस्याः क्रीडायाः आरम्भः भविष्यति। इति वार्ताः।